हिरण्यवर्णाभरिणीं सुवर्णरजतस्रजा चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावह तां महावह जातवेदो लक्ष्मीमनभगामिनी यस्यां हिरण्यं विन्देयङ्गामश्वं पुरुषानहम् अश्वपूर्वां रथमध्याम् हस्तिनादप्रबोधिने श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुहृता कां सोऽस्मितां हिरण्यप्राकारमाद्रां ज्वलन्तीं धृत्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णान्तामिहोपह्वये श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियल्लोके देवदृष्टामुदाराम् तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तमसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उवैतु मां देवसः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं दधातु मे क्षुत्पिपासामलान् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वान्यन्मुत मे गृहात् गन्धद्वारान् तु राधर्षान् नित्यपुष्टाम् करिष्ये ईश्वरेकम् सर्वभूतानाम् तामिहोपह्वजे श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहि पशूनाम् रूपवर्णस्य मये श्रेश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियं वादय मे कुले मातरं पद्ममालिनी आपसृजन्तु स्निग्धा निचिक्ले तपस मे गृहे निच देवे मातरं श्रियं वादय मे कुले आर्द्रां यः करणी व्यष्टिं पिङ्गलां पद्ममालिनी चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावह आर्द्रां पुष्करणीं पुष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो महावह तां महावह जातवेदो लक्ष्मीमनपकामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्।